गणानां स्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आन शृण्वन्नोतिभिः स्वेदसादनम्
प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती
धीनाम वित्रयवतु गणेशाय नमः सरस्वत्यै नमः
श्रीगुरुभ्यो नमः हरिः ॐ
ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते
अस्तु धन्वने बाहुभ्यामुतते
नमः
यात इष शिवतमा शिवम्
बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशेः यामिषुम् गिरिशन्तहस्तेऽभिपश्यस्तवे
शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत्
शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत्
अन्यवोच ददि वक्ता प्रथमो दैव्यो विशक
अहीगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्र स्वमङ्गलः
ये चेमागुम् रुद्र अभितो दिक्षुश्रुता
सहस्रशो वैशागुम् हेडयीमहे असभ्यो वसःपतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्न दृशन्नदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः
नमो अस्तु नीलग्रीवाय स
स्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञयोज्याश्च
ते हस्त इषवः पराता भगवो वप
अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव विद्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निषङ्गतिः
याते हेतिर्मीडष्टमहस्ते बभूवते धनुः
तयास्मान् विश्वतस्त्वम यक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो य इषुधिस्तवाहे
अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय
महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय
శ్రీమన్మహాదేవాయ నమః.
నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్పింజర యత్విషీమతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వివ్యాదినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం
పతయే నమో నమో. రుద్రాయ తతావినే
క్షేత్రాణాం పతయే నమో నమః.
సూతాయ హంత్యాయ వనానాం పతయే నమో నమో.
రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః.
నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం
పతయే నమో నమః. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం
పతయే నమో నమో. నిచేరవే
పరిచరాయారణ్యానాం
పతయే నమో నమస్త్రికాభిభ్యో జిగాగుం సద్వ్యోముష్ణతా
పతయే నమో నమో. శ్రీమద్భ్యో నక్తం చరద్భ్యః ప్రకృంతానాం పతయే నమో నమ. ఉష్ణేశినే గిరిచరాయ కులుంజానాం పతయే నమో నమ. ఇషుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో. నమ ఆతన్వానేభ్యః
ప్రతిదధానేభ్యశ్చ వో నమో. నమ ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో.
నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో. నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో. నమ స్వపద్భ్యో జాగ్రత్భ్యశ్చ వో నమో. నమస్తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో.
నమ సమాభ్యః సమాపదిభ్యశ్చ వో నమో. నమో అశ్వేభ్యో
అశ్వపదిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిద్యంతేభ్యశ్చ వో నమో. నమ ఉగణాభ్యస్త్రిగుంహరేభ్యశ్చ వో నమో. నమో గృత్తేభ్యో గృత్స్వపతిభ్యశ్చ వో నమో. నమో భ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో. నమో గణేభ్యో
గణపతిభ్యశ్చ వో నమో.
నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో. నమో మహద్భ్యః శల్లకేభ్యశ్చ వో నమో. నమో రథిభ్యో రథేభ్యశ్చ వో నమో. నమో రథేభ్యో రథపదిభ్యశ్చ వో నమో. నమస్సేనాభ్యసేనానిభ్యశ్చ వో నమో. నమః శత్రుభ్యః
సంగ్రహీతృభ్యశ్చ వో నమో. నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో.
నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో. నమః పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో. నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో. నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో.
నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః.
నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కవర్ధినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబివిష్టాయ చ నమో
మేణుష్టమాయ చేషుమతే చ నమో హస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో
వృద్ధాయ చ సంవృత్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ సేభ్యాయ చ నమః
తూన్యాయ చ వశ్యన్యాయ చ నమః శ్రోతస్యాయ చ నేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమః
సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః
శ్లోక్యాయ చ అవసాన్యాయ చ నమో అన్యాయ చ కక్ష్యాయ చ నమః
శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుసేనాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూథినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ
నమో దంధభ్యాయ చ అనన్యాయ చ నమో
దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తీక్ష్ణేశవే చాయుధినే చ నమః
స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః
కాత్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః
కోప్యాయ చ వట్యాయ చ నమో
వశ్యాయ చ వశ్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఏత్రియాయ చాతప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో
వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం
నమః సోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కుల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ చ నమః శస్ప్యాయ చ పేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమః ఇరణ్యాయ చ ప్రపథ్యాయ చ నమః కిగుంశిలాయ చ క్షయనాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః कात्याय च कपरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोक्याय चोलप्याय च नमः कौर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नमः निर्हतेभ्यो नमः मीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजीतया नो मृडजीवसे इमागुम् रुद्राय तवसे कवर्दिने शयद्वीराय प्रवरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छं च योश्चमनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदे अविष्मन्तो नमसा विधेमते आरात्ये गोघ्न उत पूरुषघ्ने जयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च न शर्म यच्च द्विबर्हाः सुहिश्रुतम् गर्तसदम् युवानम् भृगन्न भीममुपहत्नमुग्रम् ऋणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतृर्मृणक्तु परि त्वेषस्य दुर्मतिरघायोः अवस्थिरा भगवद्भ्यस्तनुष्वमीगस्तोकायतनयाय मृडया मीडुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् विभ्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः शामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विद्यन्ति पात्रेषु पिबतो जनान ये पथां पतिरक्षय ऐलवृदाय व्युदः ये तीर्थानि प्रचरन्ति श्रृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषापुं सहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्नं वातो वरुषमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं विष्मो यश्च नो द्वेष्टितं भोजं वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् अर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेशयो यगुम् शिवाभिमरुशनः ॐ शान्ति शान्ति शान्तिः ॐ सञ्च मे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्ये कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुम् राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् कण्पण्मसि ॐ शान्ति 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 ॐ तच्छयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा अतो ज्यायागस्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवे त्रिपादूर्ध्वौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमधो पुरः यत्पुरुषेण हविषा देवा यज्ञमदन्वता वसन्तो अस्याश्रीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषं व्यदधुः कदिधा व्यकल्पयन् मुखं किमस्य कौ बाहु कावूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्र अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्षोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अध्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अहम् मनिषाणा सर्वम् मनिषाणा तच्चैयोरावृणीमहे गातुयज्ञाय गातुयज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ओ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमार्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः अथ सूर्याथर्वाङ्गिरसंज्ञाख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तम् बीजम् उल्लेखा शक्तिः वीरादिसर्गसंयुक्तम् कीलकम् चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुजसंस्थितम् सप्ताश्वरथिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवः सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। सूर्य आत्मा जगतस्तस्तुषश्च सूर्याद्वैखल्विमानि भूतानि जायन्ते। सूर्याद्यज्ञः पर्जन्यो नमात्मा नमस्ते आदित्य त्वमेव प्रत्यक्षम् कर्म कर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वम् छन्दोऽसि। आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते। आदित्यो वा एष एतन्मण्डलम् तपते असावादित्यो ब्रह्मा आदित्यो अन्तःकरणमनोबुद्धिचित्ताहङ्काराः। आदित्यो वै व्यानसमानो दानोपानप्राणः। आदित्यो वै श्रोत्रत्वचक्षुरसनघ्राणाः। आदित्यो वै वाक्पाणिपादपायोपस्थाः। आदित्यो वै शब्दस्पर्शरूपरसगन्धाः। आदित्यो वै वचनादानागमनविसर्गानन्दाः। आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः। नमो मित्राय भानवे मृत्योर्मा पाहि भ्राजिष्णवे विश्वहेतवे नमः। सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्ये लयम् प्राप्नुवन्ति यः सूर्यः सोऽहमेव च। चक्षुर्नो देवस्य पिता चक्षुर्न उत पर्वतः चक्षुर्धाता ददातु नः। आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्य प्रचोदयात्। सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरात्तात् सविता धरात्तात् सविता नः सुवतु सर्वदा तिगुं सविता नो रासतां दीर्घमायुः। ओमित्येकाक्षरम् ब्रह्मा गृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि। एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति। सूर्याभिमुखो जप्त्वा महाव्याधिभयात्रमुच्यते अलक्ष्मीर्नश्यति अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति। मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्नपञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्या न किञ्चिदपि न कस्मैचित् प्रशंसयेत्। य एताम् महाभागप्रातः पठति स भाग्यवान् जायते परशून् विन्दते वेदार्थम् लभते। त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषद् भद्रम् कर्णे विश्रुणुयाम देवाः भद्रम् पश्ये मार्षभिर्यजत्राः स्थिरैरङ्गैः स्वश्नुवागुंस्वस्तनूभिः यजेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ गणानां त्वा गणानां गणानां त्वा गणपतिं गणपतिं त्वा गणानां गणानां त्वा गणपतिं त्वा गणपतिम् गणपतिम् त्वा गणपतिगुम् हवामहे गणपतिम् त्वा गणपतिगुम् हवामहे गणपतिगुम् हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् कविगुम् हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् गणपतिमिति गणपतिम् हवामहे कविम् कविगुम् हवामहे कविम् कवीनाम् कवीनाम् कविगुम् हवामहे कविम् कवीनाम् कविम् कवीनाम् कवीनाम् कविम् कविम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कविम् कविम् कवीनामुपमश्रवस्तमम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः ज्येष्ठराजमिति ज्येष्ठा राजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ब्रह्मणाम् ब्रह्मणस्पदे पदे ब्रह्मणो ब्रह्मणाम् ब्रह्मणाम् ब्रह्मणस्पदे ब्रह्मणस्पदे पदे ब्रह्मणो ब्रह्मणस्पद आपदे ब्रह्मणो ब्रह्मणस्पद पत आपते पत आनो न आपते पत आनः आनो न आनः शृण्वन् शृण्वन्न आनः शृण्वन् न शृण्वन् शृण्वन्नो न शृण्वन्नोतिभिरोतिभिः शृण्वन्नो न शृण्वन्नोतिभिः शृण्वन्नोतिभिरोतिभिः शृण्वन् शृण्वन्नोतिभिः सीदति ज्योतिभिः शृण्वन् शृण्वन्नोतिभिः सीद ओतिभिः सीदसि दोतिभिरोतिभिः सीदसादनगुम् सादनगुम् सीदोतिभिरोतिभिः सीदसादनम् ओतिभिरित्योतिभिः सीदसादनगुम् सादनगुम् सीदसीदसादनम् सादनमिति सादनम् ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसह्यसाहिने नमो भयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीन्महेशाः भो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ Shanti, Shanti, Shanti.